अथ चतुर्थोऽध्याय श्री भगवान उवाच इमां वैवस्वते योगं प्रोक्तवान् अहमव्ययं वैवस्वान् मनवे प्राह मनुरेक्ष्वाकवे ब्रवीत् एवं परंपरा प्राप्त मीमां राजर्षयो विदु स्वकाले नेह महता योगो नष्टः परन्तप स्व एवायं मया तेद्य योगः प्रोक्तः पुरातन भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् अर्जुन उवाच अपरं भवतो जन्म परं जन्म विवस्वत कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति श्री भगवान उवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप अजोऽपि सन्नव्ययात्मा भूतनामीश्वरोऽपि सन् प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्मसंस्थापनार्थाय सम्भवामि युगे युगे जन्म कर्म च मे दिव्य नैवं यो वेत्ति तत्त्वतः त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन वीतरागभज क्रोध मान्मया मामुपाश्रिता बहवो ज्ञानतपसा पूतामद्भावमागता ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वश काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवता क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा चातुर्वर्ण्यं मया श्रेष्ठं गुणकर्म विभागस तस्य कर्तारमपि मां वेद्यकर्तारमव्ययम्। नमां कर्मानिलं पन्ति नमे कर्मफले स्पृहा इति मां यो हि जानाति कर्मभिर्न स बध्यते एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुहि पुरुकर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिता तत्ते कर्म प्रवक्ष्यामि यज्ञात्वा मोक्षसे शुभात् कर्मणो ह्यपि बोद्धव्यम् बोद्धव्यं च विकर्मणा अकर्मणश्च बोद्धव्यम् गहना कर्मणो गते कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः स बुद्धिमान् मनुष्येषु स युक्तः कृष्णकर्मकृत् यस्य सर्वे समारम्भा कामसङ्कल्पवर्जिता ज्ञानाग्निदग्धकर्माणम् तमाहो पण्डितं बुधा त्यक्त्वा कर्मफलासङ्गम् नित्यतृप्तो निराशय कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति स निराशीर्यत् चित्तात्मा त्यक्त सर्वपरिग्रह शारीरं केवलं कर्म कुर्वन्नाप्नोति कीर्दिशं यदृच्छालाभसन्तुष्टो त्वन्वातीतो विमत्सर समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतस यज्ञयाचरत कर्म समग्रं प्रविलीयते ब्रह्मार्पणं ब्रह्महवेत् ब्रह्माग्नो ब्रह्मणाहुतं ब्रह्मैव तेन गान्तव्यं ब्रह्मकर्मसमाधिना दैवमेवापरेयज्ञं योगिना पर्युपासते ब्रह्माग्नावपरेयज्ञं यज्ञेनैवोपजुहवते श्रोत्रादीनेन्द्रियाण्यन्ये संयमाग्निषु जुहवति शब्दादीन् विषयान्यन्य इन्द्रियाग्निषु जुहवति सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे आत्मसंयमयोगाग्नौ रोहति ज्ञान दीपिते
यज्ञ यज्ञास्तपो यज्ञा
योग यज्ञास्तथा परे स्वाध्याय ज्ञान यज्ञास्त यतज संशित व्रता अपाने जुहति प्राणं प्राणे पानं तथा परे प्राणापानगति रुद्वा प्राणायाम परायणा अपरे नियताहारा प्राणान् प्राणेषु जुहति सर्वेप्येते यज्ञविदो यज्ञक्षपितकर्मसा यज्ञश्रेष्ठामृतभुजो यान्ते ब्रह्म सनातनम् नायं लोकोऽस्य यज्ञस्य कुतोऽन्यः पुरुषोत्तमः एवं बहुविधा यज्ञा ऋतता ब्रह्मणो मुखे कर्मजान् वेद्धितान् सर्वा नेवं ज्ञात्वा विमोक्षसे श्रेयान् द्रव्यमयाद्यज्ञास्यानयज्ञः परन्तप सर्वं कर्वाखिलं पार्थ ज्ञाने परिसमाप्यते तद्वेद्धे प्रणिपातेन परिप्रश्नेन सेवया उपदेक्षन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः यज्ञात्वा न पुनर्भूः नैवं यास्यसि पाण्डव येन भूतान्यशेषेण रक्ष्यस्यात्मान्यतो मयि अपि चेदस्वि पापेभ्य सर्वेभ्य पापकृत्तमा सर्वं ज्ञानाप्लवेनैव गृहिणं सन्तरिष्यसि यथैधांसि समृद्धोऽग्ने भस्मसात् कुरुते गुण ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा न हि ज्ञानेन सदृशं पवित्रमिह विद्यते तत्स्वयं योगसंसिद्ध कालेनात्मनि विन्दति श्रद्धावान् लभते ज्ञानम् तत्परः संयतेन्द्रिय ज्ञानं लब्ध्वा परां शान्ति मतिरेणाधिगच्छति अज्ञसाशब्दधनस्य संशयात्मा विनश्यति नायं लोकोऽस्ति न परो न सुखं संशयात्मना योगसंन्यस्तकर्माणं ज्ञानसंच्छिन्न संशयम् आत्मवन्तं न कर्माणि निवाद्यन्ति धनञ्जय तस्माद् ज्ञान संभूतं हिस्सं ज्ञानासिनात्मना चैत्वैनं संशयं योग मातिष्ठोत्तिष्ठ भारत मातिष्ठोत्तिष्ठ भारत।
ओम तत्सत् श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञान कर्म संन्यास योगो नाम चतुर्थः।